श्रीकामाक्षि मनोज्ञ मन्दहसित ज्योतिष्प्ररोहे तव स्फीतश्वेति सार्वभौमसरणी प्रागल्भ्यमभ्ययुषि चन्द्रोऽयं युवराजतां कलयते चेटिधुरं चन्द्रिका शुद्धा सा च सुधाजरी सहचरी साधर्म्युमालम्बते ज्योत्स्ना किं तनुते फलं तनुमताम् औष्ण्यप्रशान्तिं विना त्वल्मदस्मितरोचिष तनुमतां कामाक्षि रोचिष्णुनां सन्तापो विनिवार्यते नववयः प्राचुर्यम् अङ्कुर्यते सौन्दर्यं परिपूर्यते जगति सा कीर्तिश्च सञ्चार्यते वैमल्यं कुमुदश्रियां हिमरुचः कान्ते वसन्दुक्ष्यते ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव सम्पद्यते स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते कामाक्ष्याः स्मितदीदितेर्विशदिमा नैसर्गिको भासते प्राकाश्यं परमेश्वरप्रणयिनि त्वल्मदहासश्रियः श्रीकामाक्षि मम क्षिणोतु मम त वैचक्षिणीम् अक्षयाम् यद्दित्येव निलीयते हिमकरः मेघादरे शुक्तिका गर्भे मौक्तिकमण्डली च सरसी मध्ये मृणाली च सां हेरम्बे च गुहे च हर्षभरितं वात्सल्यम् अङ्कुरयते मारद्रोहिणी पुरुषे सह भुवं प्रेमाङ्कुरं व्यञ्जयत् आनम्रेषु जनेषु पूर्णकरुणा वैदग्ध्यमुत्तालयत् कामाक्षि स्मितमञ्जसा तव कथंकारं मया कथ्यते।